इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः नरेन्द्रदत्त सेमवालः आदौ मुख्यवार्ताः प्रधानमन्त्रिणा नरेन्द्रमोदिना सिन्दूराभियानस्य सफलतायै भारतीय सशस्त्रबलानां प्रशंसा विहाय प्रोक्तं यत् तेषां पराक्रमेण पाकिस्तानः पराजयमुखम् अपश्यत्। श्रीमोदी अद्य राजस्थानस्य बीकानेरक्षेत्रे 26,000 कोटि रूप्यकाणां विभिन्न विकास परियोजनानां शिलान्यासम् उद्घाटनं च कृतवान्। भारतेन अद्य स्वकीयः संकल्पः पुनरुच्चारितः अस्ति यत् भारत पाकिस्तानयोः मध्ये कापि वार्ता द्विपक्षीया भवितव्या। ऋतुविज्ञान विभागः आगामिषु द्वित्रितय दिवसेषु दक्षिण कोंकण गोवा महाराष्ट्र तटीय कर्णाटक क्षेत्रेषु अतिभीषण वृष्ट्याः संचेतनां प्रकाशितवान्। अपि च आईपीएल इति क्रिकेट क्रीडा द्वन्द्वे अद्य अहमदाबाद नगरे गुजरात टाइटन्स दलं लखनऊ सुपर जायंट्स दलं सायं 7:30 सम्मुखीकरिष्यति। प्रधानमन्त्रिणा नरेन्द्रमोदिना सिन्दूराभियानस्य सफलतायै भारतीय सशस्त्रबलानां प्रशंसा कृतास्ति। तेन प्रोदीरितं यत् तेषां पराक्रमेण पाकिस्तानः पराजयमुखम् अपश्यत्। श्रीमोदी अकथयत् यत् पाकिस्तानः भारते विहितेभ्यः आतंकगतिविधिभ्यः उत्तरदायी सम्भूय तन्निमित्तं मूल्यं दास्यति। सः प्रोक्तवान् यत् पाकिस्तानः कदापि भारतं विरुध्य जाते साक्षात् युद्धे विजेतुं न शक्नोति, अतः तेन भारतं विरुध्य योद्धुम् आतंकवादः शस्त्ररूपेण स्वीकृतः अस्ति। अवधेयं यत् श्रीमोदी अद्य राजस्थानस्य बीकानेरक्षेत्रं निकषा पलानाक्षेत्रे 26,000 कोटि रूप्यकाणां विभिन्न विकास परियोजनानां शिलान्यासम् उद्घाटनं च विधाय समारोहं सम्बोधयति स्म। श्रीमोदी प्रोक्तवान् यत् पाकिस्तानः स्वतन्त्रता प्राप्त्यानन्तरं निरन्तरम् आतंकवादं तनोति, परञ्च अधुना एतादृशं कार्याचरणं विरुध्य पाकिस्तानः भीषणमूल्यं दास्यति, यस्य वहनं तस्य सेनाः अर्थव्यवस्था च करिष्यति। श्रीमोदी अकथयत् अधुना पाकिस्तानेन सह व्यापार विषयिकी कापि वार्ता न भविष्यति, अपि तु केवलं पाकिस्तानाधिकृतस्य कश्मीरस्य विषये एव वार्ता भविष्यति। सः प्रोक्तवान् यत् एषः संकल्पः भारतस्य अस्ति, अपि च विश्वस्य कापि शक्तिः एतं संकल्पं विखण्डितुं न शक्नोति। श्रीमोदी प्रोक्तवान् यत् सिन्दूराभियानेन आतंकवादस्य निवारणाय त्रयः सिद्धान्ताः निर्धारिताः। तेषु प्रथमः अस्ति यदि भारते कीदृशोऽपि आतंकिप्रहारः भविष्यति तर्हि तद्विरुद्धं उचितोत्तरं प्रदास्यते।
मैं देशवासियों से कहता हूं, जो सिंदूर मिटाने निकले थे उन्हें मिट्टी में मिलाया है, जो हिंदुस्तान का लहू बहाते थे आज कतरे कतरे का हिसाब चुकाया है, जो सोचते थे भारत चुप रहेगा आज वो घरों में डूब डूब के पड़े हैं, अपने हथियारों पर घमंड करते थे, जो अपने हथियारों पर घमंड करते थे आज वो मलबे के ढेर में दबे हुए हैं।
इतः पूर्वं बीकानेरस्य पलानाक्षेत्रे एकस्मिन् सार्वजनिक कार्यक्रमे प्रधानमन्त्री नरेन्द्रमोदी अकथयत् यत् अद्य देशनिर्माणाय 26,000 कोटि रूप्यकाणां विविध विकास परियोजनाः समर्पिताः सन्ति। विगतवर्षेषु देशे सुदृढ आधारभूत तन्त्र निर्माणाय कृतानां कार्ययोजनानां विषये प्रकाशयन् प्रधानमन्त्री प्रोक्तवान् यत् आधुनिक मार्गाणां रेल विकास तन्त्राणां च निर्माणाय विविधाः पदक्षेपाः स्वीकृताः सन्ति।
विकास भी विरासत भी इस मंत्र का इन अमृत भारत रेलवे स्टेशनों पर उसका नजारा साफ साफ दिखाई देता है। ये स्थानीय कला और संस्कृति के भी नए प्रतीक है, यानी हर अमृत स्टेशन पर आपको भारत की हजारों साल पुरानी विरासत के दर्शन भी होंगे।
सः प्रोक्तवान् यत् अमृत भारतम् नमो भारतम् वन्दे भारतम् चेत्यादीनि रेलयान सौविध्यानि देशस्य विकासगतिम् प्रगतिम् च अग्रे नयन्ति। सः प्रोक्तवान् यत् बुलेट ट्रेन परियोजना अपि विकासपथि प्रचलति, अपि च सर्वकारः सम्पूर्णे देशे 13% रेलस्थात्राणि अमृत भारत स्थात्राणां रूपेण पुनः विकसितुं कार्यं करोति। राजस्थानस्य बीकानेर नगरे प्रधानमन्त्री नरेन्द्र मोदी 18 राज्याणां केन्द्रशासित प्रदेशानां च 80 जनपदेषु अवस्थितानां 73% पुनर्विकास अमृत स्थात्राणाम् उद्घाटनम् अकरोत्। एतानि स्थात्राणि 1100 कोटि रूप्यकाणां व्ययेन विकसितानि सन्ति। 13 शततोऽधिकानां रेलस्थात्राणां पुनर्विकासकार्यम् आधुनिक सौविध्यै सह क्रियते। संस्कृत वार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयम् कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर इति चरदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। भारतेन अद्य स्वकीयः संकल्पः पुनरुच्चारितः अस्ति यत् भारत पाकिस्तानयोः मध्ये कापि वार्ता द्विपक्षीया भवितव्या। विदेश मन्त्रालयस्य प्रवक्ता रणधीर जायसवालः अद्य मध्याह्ने नवदिल्ल्यां वार्ताहरान् अकथयत् यत् संवादः आतंकवादश्च परस्परं नैव भवितुं शक्नुतः। सः प्रोक्तवान् यत् नवदिल्ली तेषाम् उल्लेखनीयानाम् आतंकवादिनां भारत प्रत्यार्पणविषये चर्चायै सज्जमस्ति, येषां सूची कानिचन वर्षाणि पूर्वं पाकिस्तानाय प्रदत्ता आसीत्। सः प्रोक्तवान् यत् जम्मूकश्मीरस्य विषये कीदृशोऽपि द्वैपाक्षिकसंवादः केवलं पाकिस्तानेन अवैधरूपेण अधिगृहीतस्य भारतीयक्षेत्रस्य मुक्तिविषये एव भविष्यति। सिन्धुजलसन्धिविषये श्रीरणधीरः अकथयत् यत् एषा सन्धिः तावत्कालपर्यन्तं स्थगिता भविष्यति यावत् पाकिस्तानः विश्वसनीयरूपेण अपरिवर्तनीयरूपेण च सीम्नः पारम् आतंकवादम् अधिकृत्य स्वकीयं समर्थनं न परित्यजति।
भारत पाकिस्तान का जो भी एंगेजमेंट होगा वो दो पक्षीय तरीके से ही होगा। वार्ता और आतंकवाद दोनों साथ में नहीं चल सकता है। जहां तक आतंकवाद का सवाल है हम ये बात करने के लिए तैयार हैं, लेकिन जो बातचीत होगी इस पे होगी कि भारत ने जो एक लिस्ट दिया था पाकिस्तान को कुछ साल पहले, उस लिस्ट में कई एक टेररिस्ट थे, उनको कब वो भारत को हवाले कर रहे हैं इस बात पे बात होगी।
ऋतु विज्ञान विभागः दक्षिण कोंकण गोवा महाराष्ट्र तटीय कर्णाटक क्षेत्रेषु अति भीषण वृष्ट्याः रेड अलर्ट इति संचेतना प्रकाशितवान्। आकाशवाण्या सह विशिष्ट रूपेण संवादं कुर्वन् ऋतु विज्ञान विभागस्य वैज्ञानिकः डॉ आरके जेनामणि इत्यसौ प्रोक्तवान् यत् दक्षिण कोंकण गोवा तटयोः पूर्वी मध्य अरब सागर क्षेत्रस्य उपरि निम्नदाबस्य क्षेत्रं तीव्रं भवितुं संभाव्यते। सः प्रोक्तवान् यत् आगामिषु दिवसत्रयेषु केरले मानसून इत्यस्य संभावना अस्ति। डॉ जिनामणि प्रोक्तवान् यत् मानसूनः मई मासस्य 27 दिनांकं यावत् पूर्वीयं भारतक्षेत्रं प्राप्स्यति। जदयू दलस्य सांसदः संजय कुमार झा इत्यस्य नेतृत्वे एकं बहुदलीय प्रतिनिधिमण्डलम् अद्य टोक्यो नगरे जापानस्य प्रमुख विचारक मण्डलेन सह वार्तां विधाय आतंकवादं विरुध्य भारतस्य शून्य सहिष्णुतायाः विषये सूचनां प्रायच्छत्। स्वकीयायाः पञ्चदेशानां यात्रायाः प्रथमे चरणे टोक्यो नगरं सम्प्राप्य प्रतिनिधिमण्डलं राज्यसमर्थितं आतंकवादं समेत्य क्षेत्रीय सुरक्षायाः विषये चर्चाम् अकरोत्। संवादात्मक सत्रावधो प्रतिभागिभिः दुरापन्नतां विरुध्य भारतस्य युद्धम् अधिकृत्य दृढ समर्थनं व्यक्तीकृतम्। अस्मिन्नेव मध्ये एकं भारतीय सर्वदलीय प्रतिनिधिमण्डलम् अद्य प्रातः संयुक्त अरब अमीरात इत्यत्र अगच्छत्। एषः सिन्दूराभियानान्तर्गतम् एकः महत्वपूर्णः पदक्षेपः अस्ति। विदेश सचिवः विक्रम मिश्री अद्य जापानस्य विदेश प्रकरणानाम् उपमन्त्रिणां तकेहिरो फुनाकोशी इत्यनेन सह टोक्यो नगरे मेलनम् अकरोत्। विदेश सचिव उपमन्त्रिणोः वार्तायां भागं भजता श्री मिसरी वर्येण आतंकवादं विरुध्य भारतस्य शून्य सहिष्णुतायाः सन्देशः प्रदत्तः अस्ति। चर्चायां भारत जापानयोः मध्ये विशिष्ट रणनीतिक वैश्विक सामञ्जस्यानां वरिवर्धनादि विषयाः सम्मिलिताः आसन्। श्री मिसरी वर्यः जापानस्य वरिष्ठ उपविदेश मन्त्रिणा हिरोयुकी नमजू इत्यनेन सह अपि उपवेशनम् अकरोत्। आईपीएल इति क्रिकेट द्वन्द्वे अद्य अहमदाबाद नगरे गुजरात टाइटन्स दलं लखनऊ सुपर जॉइंट्स दलं सायं 7:30 वादने सम्मुखी करिष्यति। इति वार्ताः।